अनन्तम् अरविन्ददलायताक्षम् बलावतं सम् असिताम् बुधसुन्दराङ्गम् कन्दर्पकोटिकमनीयविशेषशोभम् गोविन्दम् आदिपुरुषम् तमहं भजामि। अन्यानि यस्य सकलेन्द्रियवृत्तिमन्ति पश्यन्ति पान्ति कलयन्ति चिरं जगन्ति आनन्दचिन्मय सदुज्ज्वलविग्रहस्य गोविन्दम् आदिपुरुषम् तमहं भजामि।